इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः पुनीत त्रिपाठी। अथ वार्ताः। वित्तमन्त्री निर्मला सीतारमण इत्येषा ह्यः लोकसभायां चतुर्विंशत्यधिक पञ्चविंशत्यधिक द्विसहस्रतमवर्षयोः सामान्यं वित्त संकल्पना पत्रकं प्रस्तुतवती। इदं नरेन्द्रमोदी प्रशासनस्य तृतीय कार्यकालस्य प्रथमं पूर्णं वित्त संकल्पना पत्रमस्ति। लोकसभायां केन्द्रीय वित्त संकल्पना पत्रकं सम्मुखीकुर्वती वित्तमन्त्री प्रोक्तवती यत् वैश्विक प्रतिकूल परिस्थितेः अनन्तरमपि भारतीयार्थव्यवस्था शीर्षस्तरं भजते। वित्तमन्त्री प्रोक्तवती यत् इदं पत्रकं मुख्यतया वृत्ति कौशल सूक्ष्म लघु मध्यमोद्योग मध्यम वर्गेषु केन्द्रितं वर्तते, यतोहि द्विलक्ष कोटि रूप्यकाणां परिव्ययेन सह पञ्चवर्षाणाम् अवधौ चतुःकोटि युवभ्यः पञ्च प्रधानमन्त्रिणः योजनानां पदक्षेपाणां च संग्रहणस्य घोषणापि जाता। पत्रके एतस्मिन् विकसित भारताय एकां विस्तृत संरचनां प्रख्यापयन्ति सर्वेभ्यः अवसर प्रदातुः प्रशासनस्य नव प्राथमिकताः अपि उल्लिखिताः। एतासु प्राथमिकतासु कृषि वृत्त्यवसर कौशल समावेशी मानव संसाधन विकास सामाजिक न्याय विनिर्माण सेवा नगरीय विकासोर्जा सुरक्षा आधारभूत संरचना नवाचारानुसंधान विकास इत्यादयः समाविष्टाः सन्ति। वित्तमन्त्रिणा नवीन कर व्यवस्थायाः अन्तर्गतम् आय प्राप्त कर्मचारिभ्यः आयकरे मानक व्यवकलनम् 50,000 रूप्यकेभ्यः संवर्ध्य 75,000 रूप्यकाणि यावत् कृतम्। एवमेव निवर्ति वेतन भोक्तृभ्यः पारिवारिक वार्षिक वृत्तौ व्यवकलनम् 15,000 रूप्यकेभ्यः 25,000 रूप्यकाणि यावत् कृतम्। अनेन भूयोऽपि चतुःकोटि वेतन भोग कर्मिणः निवर्ति वेतनधारकाश्च लाभान्विताः भविष्यन्ति। एतदतिरिच्य प्रशासनेन नवीन कर व्यवस्थां प्राप्त कर्तृभ्यः कर निक्षेप संरचनायाम् अपि संशोधनं कृतम्। वित्तमन्त्री अस्माकं विकास आवश्यकताभ्यः वैदेशिक मूलधनम् आक्रष्टुं वैदेशिकोद्योगमेषु निगमित करस्य मानं 40%तः न्यूनीकृत्वा 35%पर्यन्तं कृतवती। प्रशासनेन भारतीय नवाचारं सुदृढीकर्तुम् अपि च उद्यमशीलतायाः भावं वर्धयितुं सर्वेषां वर्गाणां निवेशकेभ्यः प्रसिद्धः एंजल करः निस्सारितः। एतदतिरिच्य प्रशासनेन 61,99,00,000 आयकराधिनियमस्यापि व्यापिकी समीक्षा करिष्यते इत्यस्यापि घोषणा कृता। अवधेयं वर्तते यत् अस्य वर्षस्य वित्त संकल्पना पत्रे कृषि सम्बद्धेभ्यः क्षेत्रेभ्यः 1,50,000,00,000 रूप्यकाणां प्रावधानम् अपि अस्ति। प्रधानमन्त्री नरेन्द्रमोदी यः केन्द्रीय वित्त संकल्पना पत्रकं प्रशंसितवान्। एकस्मिन् दृश्याङ्कन सन्देशे प्रधानमन्त्रिणा उक्तं यत् अनेन वित्त संकल्पना पत्रकेण समाजस्य प्रत्येकः वर्गः लाभान्वितो भविष्यति। प्रधानमन्त्रिणा कथितं यत् इदं पत्रकं विकसित विकासशील भारताय अस्ति यत् समावेशी विकासं सुनिश्चितं करिष्यति, समाजस्य सर्वेभ्यः वर्गेभ्यः हितकरं वर्तते तथा च विकसित भारताय मार्गं प्रशस्तीकरोति। तेनोक्तं यत् प्रशासनेन वृत्ति सम्बद्ध प्रोत्साहन योजनायाः घोषणा कृता, यया देशे कोटिशः नूतनाः वृत्त्यवसराः सृजिताः भविष्यन्ति। इति वार्ताः।